श्रीदुर्गायै नमः। श्रीदुर्गा सप्तशती अथ त्रयोदशोऽध्यायः ध्यानम्। ॐ बालार्कमण्डलाभासाय चतुर्बाहुं त्रिलोचनां पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे। ॐ ऋषिरुवाच, एतत्ते कथितं भूपदेवी माहात्म्यमुत्तमम्। एवं प्रभावा सा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया। तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे। तामुपैः महाराज शरणं परमेश्वरी आराधिता सैव नृणां भोगस्वर्गापवर्गदा। मार्कण्डेय उवाच, इति तस्य वचः श्रुत्वा सुरथस्थ नराधिपः प्रणिपत्य महाभागं तं ऋषिं शंसितव्रतम्। निर्विण्णोति ममत्वेन राज्यापहरणेन च जगाम सद्यः तपसे स च वैश्यो महामुने। सन्दर्शनार्थमम्बाया नदी पुलिन संस्थितः स च वैश्यस्तपस्तेऽपि देवी सूक्तं परै जपन् तौ तस्मिन् पुलिने देव्याक् कृत्वा मूर्तिं महीमये। अर्हणाय चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ। ददतुस्तौ बलिञ्चैव निजगात्रा सुभुक्षितम् एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः। परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका। देव्युवाच, तत्प्रार्थ्यते त्वया भूपत्वया च कुलनन्दन। मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्। मार्कण्डेय उवाच, ततो वव्रीनृपो राज्यमविभ्रंश्यन् यजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात्। सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्। देव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यति भवान्। हत्वा रिपूनस्खलितं तव तत्र भविष्यति, मृतश्च भूय संप्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनुर्भवान् भुवि भविष्यति। वैश्यवर्यत्वयायश्च वरोऽस्मत्तोऽभिवाञ्छितः, तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति। मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरम्। बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता, एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः। सूर्या जन्म समासाद्य सावर्णिर्भविता मनुः, एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः। सूर्या जन्म समासाद्य सावर्णिर्भविता मनुः। क्लीं ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये सुरथवैश्ययोर्वरप्रदानन्नामत्रयोदशोऽध्यायः।